एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति चुरे क्षेत्रस्य संरक्षणाय स्तरत्रयस्य सर्वकारैस्सह स्थानीय समुदायस्य सम्बद्ध निकायस्य च समन्वयः सहकार्यं संयुक्त प्रयासश्च अपरिहार्यः सन्ति। दशम चुरे क्षेत्र संरक्षण दिवसस्य सन्दर्भे ह्य आयोजितं बृहद् वृक्षरोपण कार्यक्रमं सम्बोधयन् प्रधानमन्त्री प्रचण्डः तराई मधेस क्षेत्रस्य बहुसंख्यक जनतायाः जीवनयापन माध्यमस्य रूपेण स्थितस्य चुरे क्षेत्रस्य विषयः बहुपक्षीय स्थिति अवदत्। चतुस्सप्तत्यधिक 2000 विक्रमवर्षे स्वीकृता 25 वर्षीय चुरे मधेस तराई संरक्षण व्यवस्थापन गुरू योजना सपरिमार्जनम क्रियान्वयतव्येति चर्चयन् प्रधानमन्त्री प्रचण्डः चुरे क्षेत्रस्य संरक्षणाय पृथक अधिनियमस्य आवश्यकता दृष्टा स्थित्यतः तदर्थमपि सर्वकारेण आवश्यक समन्वयः विधीयमानोऽस्तीति असूचयत्। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सह चीन देशीय जनराजनीतिक परामर्शदात्री सम्मेलन संस्थायाः उपाध्यक्षेण वाटर इत्यनेन मेलवार्ता विहिता अस्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य सम्भूते मेलने एतयोर्मध्ये द्विपक्षीयस्य सम्बन्धस्य सहयोगस्य द्वयोः देशयोः मध्ये जातानां संविधानां सहमतिनांश क्रियान्वयनस्य च विषयेष् विमृष्टमासीत्। मेलने प्रधानमन्त्री प्रचण्डः पश्चातन समये चीन भ्रमणस्य क्रमे विहितानां संविधानां क्रमशः विहितं क्रियान्वयनम् आलक्ष्य सन्तोषं व्यक्तवान्। प्रधानमन्त्री प्रचण्डः नेपाल चीन सीमा क्षेत्रे विद्यमानानां चतुर्दशानां सीमा प्रवेश बिन्दुनां संचालनं महत्वपूर्णानां संविधानां विधीयमानं क्रियान्वयनं च आलक्ष्य चीन सर्वकाराय धन्यवादान् प्रायच्छत्। तदवसरे उपाध्यक्ष वाटरः नेपाल सम्बन्धस्य विषयाय उच्च महत्त्वं ददता सम्बन्धोऽयम् आगामि दिनेष् अतिरिक्तं सुदृढो भविष्यति इति विश्वासं व्यक्तवान्। संवैधानिक परिषदः उपवेशेन निर्वाचनायोगस्य आयुक्तपदे कृष्णमान प्रधानं नियोक्तुं परामृष्टमस्ति। बालुवाचारवर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टेन परिषदः उपवेशेन प्रधान इत्यमुं निर्वाचनायुक्तपदे परामृष्टुं निर्णीतमस्तीति उपसभामुख इन्दिरा राणा मगर अज्ञापयत्। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डस्य अध्यक्षतायां सम्पन्ने उपवेशे प्रधान न्यायाधीशः विश्वम्भर प्रसाद श्रेष्ठः सभामुख देवराज घिमिरे राष्ट्रिय सभायाः अध्यक्षः नारायण प्रसाद दाहालः प्रमुख प्रतिपक्षिणः नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा उपसभामुख इन्दिरा राणा मुख्य सचिवः डाक्टर वैकुण्ठ अर्यालश्च सहभागिनः आसन्। राष्ट्रपतिः रामचन्द्र पौडेलः जर्मनी देशस्य औपचारिक भ्रमणस्य क्रमे जेनेभा नगरात् बर्लिन नगरं सम्प्राप्तो वर्तते। राष्ट्रपति पौडेलः स्वसमकक्षिणः फ्रांक वाल्टर स्ट्यामेयर इत्यस्य मैत्रीपूर्णायां निमन्त्रणायां जर्मनी देशस्य औपचारिक भ्रमणाय गतवान् अस्ति। राष्ट्रपतिः पौडेलस्य नेतृत्वस्य प्रतिनिधिमण्डलं बर्लिनस्थे ब्रान्डेनबर्ग अन्तर्राष्ट्रिय विमानस्थले जर्मनी देशस्य कृते नेपाली राजदूतः रामकाजी खड्का जर्मनी देशस्य राष्ट्रपतेः संघीय परराष्ट्र विषय कार्यालयस्य वरिष्ठ अधिकारी च स्वागतं विहितवन्तौ इति बर्लिनवर्तिना नेपालस्य दूतावासेन ज्ञापितम् वर्तते। राष्ट्रपतिना पौडेलेन ह्यो जर्मनी देशे जलवायु परिवर्तनस्य विज्ञान प्रविधेश क्षेत्रयोः अनुसन्धानं कुर्वतीनां संस्थानाम् अवलोकनं विहितमस्ति। राष्ट्रपतिना पौडेलेन जर्मनी देशस्य पोर्ट्सडाम स्थाने स्थितायाः संस्थायाः अवलोकनं विहितमस्ति। अवलोकनस्य क्रमे वैज्ञानिकैः जलवायु परिवर्तनस्य प्रभावस्य विषयेण राष्ट्रपतिः ज्ञापितः आसीत्। तदवसरे राष्ट्रपतिः पौडेलः जलवायु परिवर्तनस्य प्रभावं न्यूनीकर्तुं विकसितैः राष्ट्रैः तत्कालं विधेयानां समाधानोपायानां विषये परामृष्टुं विज्ञान अनुरुणात्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे एतद् विक्रमवर्षीय विनियोजना विनियोजन विधेयकस्य अन्तर्गतं संघीय विषय सामान्य प्रशासन ऊर्जा जलस्रोत सेचनार्थ मन्त्रालय सह सम्बद्ध शीर्षकाणि आधृत्य विमृष्टं वर्तते। विमर्शने सांसदः आयव्ययक निर्माणस्य प्राक्तन स्वरूपं परिमार्ज्य आयव्ययकस्य नीतिगतः संरचनागतश्च सुधारः विधेय इति अवोचन्। तत्पूर्वं प्रतिनिधिसभायाः ह्यस्तनोपवेशे उद्योग वाणिज्यापूर्ति मन्त्रिणा दामोदर भण्डारिणा निवेश सहजीकरणेन सह सम्बद्धानां कतिचित् नेपालाधिनियमानां संशोधकम् एतद् विक्रमवर्षीयं विधेयकं प्रास्तौत्। उपवेशस्य प्रारम्भे सांसदः बारा जनपदे मोहन विक्रम रामराजा महाविद्यालयस्य प्रमुखस्य हरिभूषण कुशवाहा इत्यस्य गोलिका प्रहारेण विहितस्य हत्यायाः विषये सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभायाः अपरोपवेशः श्वः आषाढस्य चतुर्थे दिवसे मंगलवासरे पूर्वाह्नस्य एकादशवादने वस्ता। अद्य मुस्लिम धर्मावलम्बिनां बकर ईद ईदुल जुहा नामकं पर्व समायोज्यमानो वर्तते। ईदुल फित्र इत्यस्य अर्थात् रमजान पर्वणः सप्ततितमे दिवसे बकर ईद पर्वणः आयोजनात्मको धार्मिक विधि इस्लाम धर्मे वर्तते। पर्वेदम् इस्लाम धर्मावलम्बिनां द्वितीयं महत् पर्व अस्ति। दिवसेऽस्मिन् मुस्लिम धर्मावलम्बिभिः स्नानादिकं विधाय समीपस्थे मस्जिदे ईदगाहे वा गत्वा सामूहिक रूपेण नमाज नामकं तद्धर्म पाठं प्रार्थनां च कृत्वा बकर ईद पर्व समाद्रियते। अस्य पर्वणः अवसरे सर्वकारेण अद्य सार्वजनिकावकाशः प्रदत्तो वर्तते। अत्रान्तरे कार्यवाहकेन राष्ट्रपतिना रामसाय प्रसाद यादवेन अस्य पर्वणः अवसरे शुभकामना सन्देशं ददता सामाजिक विविधतायाः आभ्यन्तरया सुदृढैकतया एव राष्ट्रियभावनाम् इतोऽपि बलीयसीं विधातुं योगदानं विधीयते इति विश्वासो व्यक्तो वर्तते। कार्यवाहक राष्ट्रपतिना यादवेन प्रदत्ते शुभकामना सन्देशे विभिन्नानां समुदायानां पर्वोत्सव स्थित्या धर्म संस्कार संस्कृतिभिश्च पारस्परिक सहिष्णुता राष्ट्रिय एकता च सबले विधीयमाने स्तः इत्युल्लिखितं वर्तते। एवमेव प्रधानमन्त्रिणा पुष्पकमल दहाल प्रचण्डेन प्रदत्ते शुभकामना सन्देशे अस्माकं देशे पर्वेदम् एकता सहकार्ययुः वातावरणं बलवत्तरं विधातुं सहयोगं विधातु इति कामना कृतास्ति। संचार सूचना प्रविधि मन्त्री रेखा शर्मा सर्वकारेण प्रस्तावितस्य सूचना प्रविधि दशकस्य सफलतायै योजनां निर्मातुं सम्बद्धान् निकायान् निर्देशति। मन्त्रालये ह्य आयोजिते सम्बद्ध निकायानां प्रमुखैस्सह विहिते विमर्शने मन्त्री शर्मा सूचना प्रविधि दशकस्य प्रस्तावः देशस्य प्रभावकारिण्या परियोजनायाः रूपेण अग्रेसारितोऽस्तीति चर्चयन्ति अस्य सफलीकरणत्वेन कार्यक्रमं निर्मातुं निरदिशत्। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री डोलप्रसाद अर्यालः याचना प्रमाणीकरणं आगामिनः श्रावण मासात् पूर्णरूपेण अनलाइन वैद्युताङ्कन प्रणालीयुतं विधास्यते इति सूचयति। श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालये ह्य मन्त्री अर्यालः पदनिर्वहणस्य शतदिनानां पूरणस्य अवसरे मन्त्रालयस्य प्रगति विवरणं सार्वजनिक कुर्वन् एतदवधौ एकघण्टायाः अभ्यन्तरे श्रम स्वीकृति प्रदानादीनि महत्वपूर्णानि कार्याणि भूतानि सन्तीति अज्ञापयत्। राष्ट्रियसभायाः विधायन व्यवस्थापन समित्या मीडिया काउन्सिल विधेयकमाधृत्य प्रेस काउन्सिल संस्थायाः पदाधिकारिभिस्सह विमृष्टं वर्तते। ह्यः सिंहप्रासादे सम्भूते विमर्शने प्रेस काउन्सिल संस्थायाः अध्यक्षः बालकृष्ण बस्नेतः सर्वकारेण केवलं नाममात्रेण मीडिया काउन्सिल संस्थायाः विधेयकम् आनीतमस्तीति चर्चयन् सम्प्रति संघट्यमाना मीडिया काउन्सिल संस्था स्वायत्ता विधेयति अवोचत्। उपवेशे समितेः सभापति जयन्ती देवी राई मीडिया काउन्सिल विधेयकं विज्ञै सम्बद्धैः सह विमृश्य अग्रे वर्धयिष्यते इति प्रतिबद्धतां व्यक्तवती।